प्रियाः श्रोतारः नमो नमः। आकाशवाण्याः प्रतिष्ठिते संस्कृत साप्ताहिकीति कार्यक्रमे भवतां समीक्षां श्रोतृवृन्दानां स्वागतं व्याहरामि। अहं निधिः तिवारी। कार्यक्रमस्य उद्घोषिका। श्रोतारः, अथ पश्चात् अस्माभिः निश्चयेन सकल कार्यक्रमस्यान्तर्गतं सुपरीक्षितानि सम्यक् विवेचितानि वाक्यानि सुभाषितं प्रसंगं साप्ताहिकी वार्ताश्च उत्क्रम्य सर्वादौ सुभाषितानुभागं स्वीय कंठे निधाय अर्थसहितं उत्थापयति अस्माकं सहयोगिनी रिंकू जोशी।
अधिगत परमार्थान् पंडितान् महावमंसा तृणमिव लघुलक्ष्मीर्नैवतां संरुणद्धि अभिनव मदलेखा श्यामगण्डस्थलानां न भवति दिशतन्तुर्वारणम्
सुष्ठुक्तं भवत्या। तदर्थं धन्यवादाः। समरसिकाः मे श्रोतारः, मध्याह्ने एतस्मिन् समये कार्यक्रमस्यान्तर्गतं प्रसंगानुभागस्वरूपं दृढमनसा इतोऽपि परिश्रान्तकाले अनुभूतसुखयुतं निष्पादयति अस्माकं सहयोगिनी साधना शर्मा। ततश्च श्रुण्वन्तु एताम्।
जय गंगे जय गंगे जय गंगे भगवती तव तीरे नीरमात्राशनोहम् विगत विषय तृष्णः कृष्ण माराधयामि सकल कलुष भंगे स्वर्ग सोपान गंगे तरल तर तरंगे देवी गंगे प्रसीद देवी गंगे प्रसीद देवी गंगे प्रसीद।
धन्यवादाः भवत्यै। श्रोतृगणाः, अधुना आगतायाः साप्ताहिकी वार्तायाः क्रमः। एताः वार्ताः यथाक्रमं घटितान् विषयान् अवलम्ब्य कथ्यते अस्माकं सहयोगिनया पुनीत त्रिपाठिना। ततश्च श्रूयन्ताम्।
प्रधानमन्त्रिणा नरेन्द्रमोदिना तृतीयवारं प्रधानमन्त्री पदभार ग्रहणानन्तरं कृषक सम्मान निधेः 17 भागराशिः हस्तान्तरितः। सिक्किम क्रान्तिकारी मोर्चा इत्येतस्य नेता प्रेम सिंह तमांगः सिक्किमस्य मुख्यमन्त्रित्वेन शपथवचनं स्वीकृतवान्। निर्वाचनायोगेन 7 त्रयोदश विधानसभासनेषु समायोक्ष्यमाणस्य उपनिर्वाचनस्य कार्यक्रमः उद्घोषितः।
धन्यवादाः भवति। साधुवादाः। सकल अधीत ज्ञानम् अनुभवेन विना अर्धम् अल्पम् च भवति। ज्ञानप्राप्त गुरूणां विषयविवेचनम् अस्मत्कृते फलदायिनम् भवति। तावत् स्वीयानुभवं ज्ञानं च ज्ञानविज्ञान विभागे एतस्मिन् कथ्यते अस्माकं साक्षात्कारस्य महोदयेन। एतेन महोदयेन सह साम्प्रतं आकाशवाण्याः एतस्मिन् प्रकोष्ठे संवादः समाचर्यते युवराज भट्टराई इत्यनेन। आगच्छन्तु श्रूयन्ताम् एनं प्रभागम्।
अद्यतन संस्कृत साप्ताहिकी कार्यक्रमे सम्भाषणार्थम् उपस्थितः विशिष्टः अतिथिरस्ति संस्कृत शिक्षण व्युत्पन्नः विद्यालय स्तरेषु नैक संस्कृत संवर्धन कार्यक्रमाणाम् अनुष्ठाता प्रखर प्रवक्ता राजस्थानस्य जोधपुर पालरोड स्थितस्य प्रतिष्ठितस्य डीपीएस विद्यालयस्य संस्कृत विभागस्य वरिष्ठः शिक्षकः संस्कृत युव विद्वान् श्रीयुतः भीष्मनारायण शर्म महोदयः। मान्य महोदयः, तत्र भवतः संस्कृत साप्ताहिकी कार्यक्रमे हार्दम् अभिनन्दनं व्याहरामि।
नितराम् प्रीतोऽस्मि, स्वागतार्थ भवते युवकवये आकाशवाण्ये च धन्यवादाः।
शोभनम्। भीष्म महाभाग, एवं तु संस्कृत ज्ञानं समेषां जीवन पाथेयभूतमस्ति, किन्तु अहं ज्ञातुमिहे यद् भवतः संस्कृत ज्ञानस्य मुक्ताफलस्य जीवन पाथेयं निपीतेषु तत्रत्येषु अधियानेषु छात्रेषु जीवन मूल्यबोधस्य कीदृशः प्रभावः दृश्यते, कृपया प्रोच्यताम्।
सुष्ठु प्रश्नः पृष्टः भवता। वस्तुतः संस्कृतं तु सर्वथा जीवनपाथेयभूतं वर्तते। अस्माकं छात्रेषु नेके छात्राः भारतीये सैन्यबले, गूगल इति अन्तर्जाल समवाये च कार्यरताः सन्ति, केचन च चिकित्सकत्वेन, प्रशासनिकम् अधिकारत्वेन च मानवसेवां, राष्ट्रसेवां च कुर्वन्तः सन्ति। वस्तुतः तेषु अयं सेवासंस्कारः संस्कृतवाङ्मयस्य अध्ययनेन एव सञ्जातः अस्ति इति अहं मन्ये। संस्कृतपठनेन विद्यार्थी परोपकारी, त्यागी, समाजसेवी च जायते।
एवं
सहैव नैतिकता, मानवीयता, समरसता, स्वजनता, सदाशयता प्रभृतिभिः सद्गुणजातैः परिपूर्णः छात्रः वसुधैव कुटुम्बकम् मित्रस्य चक्षुषः समीक्षामहे सदृशानाम् सूक्तानाम् उदात्तभावनाभिः सर्वान् सेवते।
सत्यमाह भवान्। महोदय, साम्प्रतिके समये एवं मान्यते यत् संस्कृताध्ययनेन जीविका प्राप्तिः कष्टसाध्या भवति, अतः समेऽपि धनार्जन केन्द्रितामेव शिक्षां समर्जितुम् इच्छन्ति। तर्हि शिक्षा, कर्तव्य ज्ञान, चिन्तन, संस्कृति, सदाचार बहुला संस्कृत शिक्षा कथं किमर्थं च पठेयु छात्राः, एतद्विषये भवान् किमपि निजं मन्तव्यम् उपस्थापयतु कृपया।
समसामायिकः प्रश्नः कृतः भवता। यद्यपि जीवने धनस्य महत्वं वर्तते, किन्तु धनमेव सर्वस्वमस्ति इत्यत्र नास्ति मे सम्मतिः।
सत्यम्।
भवता संस्कृतस्य अध्ययनेन जीविका प्राप्ति कष्टसाध्या इति प्रोक्ता, परं वस्तुस्थिति भिन्ना वर्तते। यथा अन्यविषयाणां छात्राः आजीविकाः लभन्ते, तथैव संस्कृतस्य छात्राः अपि जीविकाः लब्धुम् अर्हन्ति। किमधिकं साम्प्रतिके समये तु संस्कृतज्ञाः अन्येभ्य जनेभ्य अपि जीविकायाः अवसरान् प्रयच्छन्तः सन्ति।
एवम्
उदाहरणत्वेन विश्वे योगस्य, आयुर्वेदस्य च पुनरुज्जीवन कर्तारो योग शिरोमणिः बाबा रामदेवः, आयुर्वेद शिरोमणिः बालकृष्णः च वयं द्रष्टुं शक्नुमः। एवमेव संस्कृतं पठित्वा छात्रा, जनाश्च योग प्रशिक्षकाः, आयुर्वेद आचार्याः, शिक्षकाः, नाडीवैद्याः, ज्योतिष्काः, पत्रकाराः, वास्तुकाराः, यूट्यूब व्यवसायिनः, कथावाचकाः, पुरोहिताः, धर्मगुरुवः च भवितुं शक्नुवन्ति।
एवम्
अथ च तेषु क्षेत्रेषु यत्र अन्ये सामान्याः जनाः जीविकां लभन्ते, तत्रापि संस्कृतम् अधीयाना छात्राः जीविकां लब्धुम् अर्हन्ति। अतः संस्कृते जीविकायाः पूर्णाः अवसराः सन्ति इति मे मतिः।
सत्यमाह भवान्। मान्य महोदय, डीपीएस विद्यालयाः देशस्य प्रतिष्ठितेषु शिक्षण संस्थानेषु अन्यतमः सन्ति। इमे विद्यालयाः देशस्य शैक्षिक विकासाय महत्वपूर्णं योगदानं कुर्वन्ति। तर्हि तत्रत्या शिक्षण व्यवस्था कथमस्ति उच्चस्तरीया, तद्विषये संक्षिप्य उच्यतां कृपया।
सत्यम् आह भवान्। दिल्ली पब्लिक स्कूल सोसाइटी इति संस्था भारते विद्यमानासु विद्यालयीय स्तरे शिक्षा प्रदायकेषु संस्थानेषु एकतमा संस्था वर्तते। अस्याः संस्थायाः भारते विदेशेषु च 30+ विद्यालयाः कार्यरताः सन्ति। अस्य शिक्षण संस्थानस्य आरम्भः एकोनपञ्चाशदुत्तर एकोनविंशति शततमे वर्षे जातः आसीत्। यत्र जोधपुरे अहं कार्यपरः अस्मि सः विद्यालयः तत्रत्य सर्वाधिकः प्रतिष्ठितः विद्यालयः अस्ति। अत्र निदेशकः प्रसिद्ध शिक्षाशास्त्री बीएस यादवः वर्तते, यस्य प्रयासे अस्माकं विद्यालयः समस्ते भारते अग्रगण्येषु विद्यालयेषु समाविशन्ति। अस्माकं विद्यालयः छात्र केन्द्रितां शिक्षां प्रददाति। अत्र हि छात्राणां सर्वांगीण विकासाय विभिन्नाः विद्यालयीयाः अन्तर्विद्यालयीयाः च सांस्कृतिकाः साहित्यिकाः शैक्षिकाः च कार्यक्रमा आयोज्यन्ति। अतः इत्थम् अस्माकं विद्यालयः देशस्य शैक्षिकः विकासाय निश्चप्रचम् महत्वपूर्णम् उच्चस्तरीयं योगदानं करोति इति वक्तुं शक्यते।
सत्यं प्रोक्तं भवता। वस्तुतः संस्कृत साहित्यं तु वैदिककालादेव अनारतं प्रवहति। अहं बोद्धुमिच्छामि यत् वैदिककालात् अधुना यावत् शिक्षायाः ज्ञानस्य च परम्परा कथं विकसिता उत वा परिवर्तिता अस्ति। अस्मिन् विषये किमस्ति भवतः अभिमतम्?
सुष्ठु समीचीनस्य अयं प्रश्नः कृतः भवता। यद्यपि भारतदेशे ज्ञानस्य सततं प्रवाह अक्षुण्यरूपेण वैदिककालादारभ्य अद्यावधि पर्यन्तं वर्तते, परं कालक्रमेण ज्ञानस्य स्वरूपं विकृतं जातम्। अनेके स्तरेस्तु कतिपयः प्राचीनाः ज्ञानपरम्पराः अपि विलुप्ताः सञ्जाताः। अत्र न केवलमेकं कारणम् उत्तरदायी यस्य निराकरणं सरलरूपेण कर्तुं शक्येत, अपि तु कारणश्रृङ्खलाः सन्ति। पाठ्यसामग्री, तस्याः वाचनं, लेखनम्, अवबोधनश्च केवलं सामान्यः रूपे एव वर्तते, यस्य प्रत्यक्षम् इन्द्रियमाध्यमेन भवति। प्रयोगश्च केवलं विज्ञानप्रयोगशालायामेव सङ्कुचितः। अस्याः स्थानमपि अद्य अन्तर्जालेन परिवर्तितः। अतः ज्ञानस्य स्वरूपं परिवर्तितं, विकसितं, विकृतं च सततं जायते।
एवम् अस्तु महोदय, भवद्भिः ज्ञानस्य परिवर्तनम्, विकसनम्, संकुचनम् च सर्वमपि अत्र प्रतिपादितम्। मान्यमहोदय, भवता सम्भाषणार्थं नैजः समयः कल्पितः, एतदर्थं भवते भूयांशु धन्यवादाः।
भवते युवकवये आकाशवाणी दलाय श्रोत्री जनेभ्यः च सन्तु मे शिवकामाः।
नमो नमः।
धन्यवादाः भवते महोदयाय च धन्यता वचांसि। प्रियाः श्रोतारः, सकल कार्यक्रमस्य क्षेत्रात् समायातमस्ति संस्कृत दिग्दर्शनम्, यस्मिन् भवन्तः श्रवणं करिष्यन्ति चतुर्षु दीक्षु समायोक्ष्यमाणान् समायोजितान् कार्यक्रमान्, कार्यशालाः, क्रियाकलापाञ्च। इदं संस्कृत दिग्दर्शनम् सुनिश्चित तिथिना सह बीजावापं च कृत्वा प्रस्तौति अस्माकं सहयोगिनी ऋचा झाः। स्वीय सौविध्यानुसारम् आवश्यकतानुसारं च तिथयः निज दैनन्दिनी पुस्तिकायां लेखितव्याः भवद्भिः। आयान्तु, कर्णगोचरी कुर्यात्।
अतिविशिष्टा अवधान परम्परा प्रगल्भा प्रसृत्वरा च भवेद् इति धिया तत्क्षेत्रे कार्यं कुर्वाणेन चाणक्य विश्वविद्यालयस्थेन भारतीय ज्ञान परम्परा केन्द्रेण भाविनोऽवधानिनो लक्ष्यीकृत्य अवधानी शिक्षा इत्याख्या पञ्च दिवसा आवासीय कार्यशाला जुलाई मासस्य प्रथम दिनांकतः पञ्च दिनांकं यावत् संकल्पिता वर्तते। केन्द्रीय संस्कृत विश्वविद्यालयस्य श्री रघुनाथ कीर्ति परिसरे देवप्रयागे अगस्त मासस्य सप्तदशाष्टादश दिवसयोः पर्यावरण जागरूकता सतत विकासश्च भारतीय परिप्रेक्ष्यस्य संस्कृत साहित्यस्य च विशेष सन्दर्भे इति विषये द्विदिवसीया राष्ट्रिय संगोष्ठी आयोज्यते। शोधच्छात्राः प्राध्यापकाश्च स्वस्य शोधपत्रस्य सारांशः जून मासस्य विंशति दिनांकात् पूर्वमेव अस्मिन् ईमेल संकेते प्रेषयितुं शक्नुवन्ति sachidanandasnehi@gmail.com। पञ्जीकरणं निःशुल्कमस्ति। दरभंगा संस्कृत विश्वविद्यालयेन अस्मिन् वर्षे आयोजयिष्यमाणां पैट इति परीक्षां विहाय प्रायः सर्वासां परीक्षाणां परीक्षावेदनस्य पञ्जीकरणस्य च तिथिः पुनः अपरिहार्य कारणात् विस्तारिता। साम्प्रतं छात्राः जून मासस्य पञ्चविंशति दिनांकं यावत् आवेदनं कर्तुं शक्नुवन्ति। पूर्वम् एषा व्यवस्था मे मासस्य एकविंशति दिनांकतः जून मासस्य पञ्चदश दिनांक पर्यन्तमेव आसीत्।
धन्यवादाः रिचि। बालाः, भवन्तः सर्वे कथा रुचिकराः प्रतीयन्ते। कथया निज स्वभावे सकारात्मक प्रभावः उत्पद्यते। भवतां सवेषां बालानां कृते साधारणां सामान्यां वैशिष्ट संहिताम् अवगमनयुताम् वानरस्य चातुर्यमिति कथां प्रवदति मम सहायकः पुरुषोत्तम शर्मा। निश्चप्रचं नैतिकयुता कथा एषा भवेदिति।
नदीतटे एकस्मिन् जम्बूवृक्षे एकः रक्तमुखः वानरः प्रतिवसति स्म। सः जम्बूफलानि खादति स्म। नद्याः जले एकः मकरः तस्य मित्रम् आसीत्। एकदा मकरः स्वपत्न्यै जम्बूफलानि अददात्। मधुराणि जम्बूफलानि खादित्वा मकरी प्राह। मधुराणि फलानि खादित्वा वानरस्य हृदयं मधुरं भविष्यति। तर्हि आनय तस्य मित्रस्य हृदयम्। मकरः तीरम् आगत्य वानरम् अवदत्, बन्धो तव भ्रातृजाया त्वां गृहे निमन्त्रयति, अहं त्वां पृष्ठे धृत्वा गृहं नेष्यामि। वानरः तथा अकरोत्। नदी मध्ये आनीय मकरः वानरम् अवदत्, मित्र मम पत्नी तव मधुरं हृदयं खादितुमिच्छति। हृदयं तु वृक्षस्य कोटरे निहितमस्ति, वानरः अवदत्, अतः मां तत्र नय, येन स्वहृदयम् आनीय स्वभ्रातृजायां तोषयामि। मूर्खः मकरः वानरं पुनः वृक्षसमीपम् अनयत्। वानरः उत्पुत्य वृक्षम् आरुह्य अवदत्, धिग्मूर्ख, त्वं मित्रेण सह विश्वासघातम् अकरुः, आवयोः मैत्री समाप्ता।
सम्यक् प्रवदनाय धन्यवादाः भवति। सुहृद् श्रोति समूहाः नानाविध कला संस्कृतिभिः अनेकैः पुष्पैः अरण्यैः उद्यानैः प्रदेशैः इत्यादिभिः च आच्छादितम् इदं भारतवर्षम् एकस्मिन्नेव भूमण्डले स्वपताकाम् ऐक्यभावेन उत्तोलयति। एनम् ऐक्यभावं विविधभाषाभिः माधुर्येण वचसा कथयति मम सहायिका निधिः झा। भारतं प्रति आसक्तिं प्रकटयन् एतत् एक भारतं श्रेष्ठ भारतं भवन्तः सर्वे बहुगुणयुक्ताः श्रोतारः श्रोष्यन्ति। आयान्तु तर्हि श्रुवन्तु कृपया।
प्रथमं वाक्यमस्ति, भारतीय परंपरायां नव दर्शनानि सन्ति। हिंदी में, भारतीय परंपरा में नौ दर्शन हैं। मैथिली में, भारतीय परंपरा में नौ टा दर्शन एच। द्वितीयं वाक्यमस्ति, येषु षड् आस्तिकानि अथ त्रीणि नास्तिकानि दर्शनानि विद्यन्ते। हिंदी में, जिनमें छह आस्तिक और तीन नास्तिक दर्शन हैं। मैथिली में, जाहि में छह टा आस्तिक आ तीन टा नास्तिक दर्शन एच। तृतीयं वाक्यमस्ति, आस्तिक दर्शनानां नाम तावत् सांख्य योगः, न्यायवैशेषिकः, मीमांसा वेदांतः। हिंदी में, आस्तिक दर्शनों के नाम है सांख्य योग, न्यायवैशेषिक, मीमांसा तथा वेदांत। मैथिली में, आस्तिक दर्शन सभक नाम एच सांख्य योग, न्यायवैशेषिक, मीमांसा और वेदांत। धन्यवाद।
निज प्रकल्पितान्वेषणाय धन्यवादाः भवत्यै। श्रोत्री समूहाः, साम्प्रतम् एतेषां प्रभागानां प्रस्तुतानन्तरं समयो व्यतीतो जातः, परञ्च समेषां भवतां प्रतिपुष्टि प्रक्रियाः अस्मान् सर्वदा आसप्ताहं निरन्तरेण प्रेरयन्ति। तावत् स्वीय मनोविचारान् अस्माकम् ईमेल संकेते nsdsanskrit@gmail.com इत्यत्र सम्प्रेष्य अनुग्रहीतं कुर्वन्तु। तावत्पर्यन्तं पुनर्मिलामः। नमो नमः। शुभं मंगलं च।